इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका मुदिता वेतालः। आदौ मुख्य वार्ताः। निर्वाचन आयोगेन लोकसभा निर्वाचनार्थं तिथयः उद्घोषिताः। अप्रैल मासस्य 19 दिनांकतः मतदानं भविष्यति। मतगणना च जून मासस्य 4 दिनांके भविष्यति। केन्द्रेण जम्मू कश्मीर पीपुल्स फ्रीडम लीग इत्यस्य 5 वर्षाणि यावत् प्रतिबन्धः कृतः। अपि च जेकेएलएफ इत्यस्य यासिन मलिक समूहे अपि प्रतिबन्धोऽयं संवर्धितः। प्रकल्पितः लद्दाख हिमाचल प्रदेश राज्ययोः अस्य मासस्य 21 तिथौ तादृशी स्थिति अनुमानिता। अपि च ऑल इंग्लैंड ओपन बैडमिंटन चैंपियनशिप प्रतिस्पर्धायां भारतीय क्रीडक लक्ष्य सेनः अद्य इंडोनेशिया देशीयेन जोनाटन क्रिस्टी इत्यनेन सह पुरुषाणां एकलीय उपांत्य चक्रे क्रीडिष्यति। अथ वार्ताः विस्तरेण। निर्वाचन आयोगेन लोकसभा निर्वाचनार्थं तिथयः उद्घोषिताः। देशे 16 लोकसभायै 7 चरणेषु मतदानं भविष्यति। प्रथमे चरणे अप्रैल मासस्य 19 दिनांके 2100 आसनेषु, द्वितीय चरणे 26 दिनांके 89 आसनेषु, तृतीय चरणे मई मासस्य 7 दिने 94 आसनेषु, चतुर्थे चरणे मे मासस्य 13 दिनांके 96 आसनेषु, पंचमे चरणे मे मासस्य 20 दिने 49 आसनेषु, षष्ठे चरणे मासस्य 25 दिने 57 आसनेषु, अन्तिमे चरणे जून मासस्य प्रथमे दिने 57 आसनेषु मतदानं भविष्यति। तदनु जून मासस्य 4 दिने मतगणना आरप्स्यते। अद्यारभ्य आचार संहिता प्रारब्धा। केन्द्रेण जम्मू कश्मीर पीपुल्स फ्रीडम लीग इत्यस्य 5 वर्षाणि यावत् प्रतिबन्धः कृतः। अपि च जेकेएलएफ इत्यस्य यासीन मलिक समूहे अपि प्रतिबन्धोऽयं संवर्धितः। एकस्मिन् सामाजिक सन्देश पटले केन्द्रीय गृहमन्त्री अमित शाहः प्रोदीरितवान् यत् प्रतिबन्धितः अयं समूहः जम्मू कश्मीरे आतंकवादं पृथक्वादं च संवर्धयितुं संलग्नो आसीत्। भारत ऋतु विज्ञान विभागेन जम्मू कश्मीरे अल्पवृष्टिः हिमपातश्च प्रकल्पितः। लद्दाख हिमाचल प्रदेश राज्ययोः अस्य मासस्य 21 तिथौ तादृशी स्थिति अनुमानिता। विभागेन कथितं यत् पश्चिम बंगाल झारखंड ओडिशा विदर्भ छत्तीसगढ़ मध्यप्रदेश राज्येषु वृष्टिः विद्युद्ध्वनिः वायुप्रवाहश्च अस्य मासस्य 20 दिनांकं यावत् अनुमानितः। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एयर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। पूर्व भारतीय प्रशासनिक अधिकारी नवनीत कुमार सहगलः अद्य प्रसार भारत्याः नवीनाध्यक्षत्वेन पदभारं स्वीकृतवान्। श्री सहगलः यूपी संवर्गस्य 88-19 शततम वर्षस्य सेवानिवृत्तः अधिकारी अस्ति। एषः अधिकारी ए सूर्यप्रकाशस्य स्थाने आगतः, यो हि 20-2000 वर्षे अध्यक्षरूपेण स्वीय कार्यकालः सम्पूरितः। इतः पूर्व राष्ट्रपते द्रौपदी मुर्मू उपराष्ट्रपते जगदीप धनखंडस्य अध्यक्षतायुताया प्रसार भारत्या अध्यक्षाय चयन समित्या तस्य नाम्नः स्वीकृते अनन्तरं एषः नियुक्तः जातः। विदेशमंत्री डॉ एस जयशंकर अस्य मासस्य त्रयोविंशति दिनांकतः सिंगापुर फिलीपींस मलेशिया देशानां पंच दिवसीय यात्रायां भविष्यति। यात्रा इयं त्रिभिः देशैः सह द्विपक्षीय संबंधान् विधातुं ध्यानं प्रदास्यति। तच्च पारस्परिक क्षेत्रीय विषयेषु वार्तायाः कृते अवसर प्रदानं करिष्यति। दिल्ल्याः राउज एवेन्यू न्यायालयेन अद्य दिल्ल्याः मुख्यमंत्री अरविंद केजरीवालः सुप्रसिद्धेन उत्पादन शुल्क नीति प्रकरणेन सम्बद्धेन एकस्मिन् प्रसंगे प्रवर्तन निदेशालयेन प्रसारितस्य आह्वानस्य अन्तर्गतं निगडनं विरुध्य विमोचित। न्यायालयेन अत्रावसरे प्रख्यापितं यत् आम आदमी पार्टी इति दलस्य नेतुः एतस्य विमोचनाय 15,000 रूप्यकाणां निम्नदेय राशेः 1,00,000 रूप्यकाणां च सुरक्षाबन्धं प्रख्यापयितुं निर्दिष्टवान्। दिल्ल्याः मुख्यमन्त्रिणा भारतीय दण्ड संहितायाः धारायाः 74% इत्यस्याः उल्लंघनं कृतमस्ति। श्री केजरीवालः प्रवर्तन निदेशालयस्य मुहुर्मुहु संभानां पञ्चादेशेव नियमस्य अनुपालनं न करोति। तेन अष्टवारस्य निदेशालयस्य संचेतना अपि दूरीकृतास्ति। प्रकरणस्य अस्य अग्रिमम वादश्रवणम् अप्रैल मासस्य प्रथमे दिनांके प्रातः 10 भविष्यति। जम्मू कश्मीर राज्ये विस्थापितानां कश्मीर पंडित संघटनानां अनेकैः प्रतिनिधिभिः ह्यः उपराज्यपालेन मनोज सिन्हा इत्यनेन सह मेलनं विहितम्। प्रतिनिधिभिः स्वकीयः समुदायस्य कल्याणाय अनेकेषां विषयाणां सूचना उपराज्यपालाय प्रदत्ता। प्रतिनिधयः उपराज्यपालाय अनेकानि पुस्तकानि अपि प्रदत्तवन्तः। प्रदत्तपुस्तकेषु जोना राजा नरसंहार अत्याचार अध्ययन संस्थानयोः पत्रिका पावकः इत्थम डॉ आर एल भट्टस्य पुस्तकं कश्मीर ऑस्टर कलहन इति समाविष्टमस्ति। कश्मीरी पंडित समुदायस्य युवकेषु क्रीडां संवर्धयितुं ललितादित्य खेल संघटनस्य सदस्यैः श्री सिन्हां प्रति आभारः प्रकटितः। नासा इति अंतरिक्ष अनुसंधान संस्थानम् अस्मिन् वर्षे अक्टूबर मासे बृहस्पति चन्द्रयोः यूरोपा इति अंतरिक्ष अभियानस्य माध्यमे एकं संदेशं नेष्यति। एतत् अभियानं जीवनस्थ संभावना ज्ञातुं विधास्यति यतो हि वैज्ञानिकैः यूरोपा इत्यस्य अधस्तात् लावणिक निर्झर्याः भविष्यवाणी कृतास्ति। यूरोपा इति एतत् अंतरिक्षयानम् अमेरिकायाः एडा लिमोन इति अनेन लिखितस्य धातुपत्रमस्ति। एतदर्थं जनैः 2.6 कोटि मितानि नामानि प्रस्तुतानि आसन्। एतेषु भारतीय सम्बद्धाः अपि सन्ति। अवधेयमस्ति यत् एतेषु हिन्दी समेत्य अन्यासु भाषासु अपि ध्वनितरंगाः सन्ति। महिला प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां रॉयल चैलेंजर्स बैंगलोर दलेन मुंबई इंडियन दलं पराजित्य निर्णायक चक्रे प्रविष्टः कृतः। गतरात्रौ क्रीडितायां स्पर्धायां बैंगलोर दलेन मुंबई दलं 5 धावनांकैः पराजितम्। निर्णायक चक्रे श्वः दिल्ली बैंगलोर दलयोः मध्ये स्पर्धा भविष्यति। इयं स्पर्धा दिल्लीस्थे अरुण जेटली क्रीडांगणे भविष्यति। इति वार्ताः।